सर्वेभ्यो नमः. अद्यतनविषयः अस्ति द्वितीया विभक्ति. गतवर्गे वयं किञ्चिदेव तस्य अवलोकनं कृतवन्तः. तत्र द्वितीयविभक्ति कर्मपदस्य कर्मपदं द्वितीयविभक्त्यन्तं भवति, अपि कर्तृपदं प्रथमविभक्त्यन्तं भवति इति जानीमः. तत्र क्रियापदस्य वचनम् अपि पुरुषः तद् कर्तृपदमेव अनुसरति, कर्मपदस्य न. कर्मपदस्य बहुवचनं भवति चेदपि क्रियापदस्य एकवचनं भवितुम् अर्हति. अतः तत्र क्रियापदस्य वचनमपि पुरुषः केवलं कर्तृपदस्य अनुसरणं करोति, अनुसरति. अस्तु तर्हि तत्र
एकं द्वे एकम् अस्ति न महोदय?
हा सत्यं भगिनि. हा कर्तृपदं
प्रथमपदं,
कर्मपदं द्वितीयविभक्ति, अपि क्रियापदं
क्रियपदम्
एकम् इत्युक्ते तत्र प्रथम तत्र प्रथम
कर्तृपदम् अनुसरति.
हा एकम् इत्युक्ते क्रियापदं कर्तृपदम् अनुसरति. समीचीनं भगिनि, सत्यं. हा अस्तु तर्हि इदानीं तत्र प्रायशः प्रथम अभ्यासः पुटसङ्ख्या 98 मध्ये प्रथम अभ्यासः वयं कृतवन्तः. 99 पुटसङ्ख्या मध्ये 99 तत्र द्वितीय अभ्यासं कुर्मः. तत्र हा रूपं तत्र पुटसङ्ख्या 98 मध्ये तु रूपम् अस्ति द्वितीयविभक्ति: बालकं, बालको, बालकान्, बालिकां, बालिके, बालिकाः, लेखनीं, लेखन्यौ, लेखनीः. अपि वनम् अस्ति चेत् किं भवति? वनं द्वितीयविभक्तिरूपं
वने
वनं वने वनानि. प्रथमविभक्तिरूपमेव द्वितीयविभक्तौ एव अपि भवति. अस्तु तर्हि तत्र उषा भगिनी आरम्भं करोति वा यतोदाहरणम्?
आं महोदय. यतोदाहरणं रिक्तस्थानानां पूरयत. रिक्तस्थानानां पूरयत.
केवलं
रिक्तस्थानं पूरयत. सौचिकः एकवचनं सौचिकं, सौचिकौ, सौचिकान्. विषयः विषयं, विषयौ, विषयान्. दण्डदीपः दण्डदीपं, दण्डदीपौ, दण्डदीपान्.
समीचीनं भगिनि. अस्तु नरेश महोदय अग्रे.
मुनिः मुनिन्, मुनी मुनीन्. सेनापतिः सेनापतिं, सेनापती सेनापतीन्. हरिः हरिं, हरी हरीन्. अतिथिः अतिथिम्, अतिथी अतिथीन्.
अतिथीन्. हा समीचीनं. हा इदानीं रघुपति महोदय भवान् उकारन्त.
अस्तु. वेणुः द्वितीयविभक्ति: वेणुं, वेणु, वेणून्. अनन्तरं शत्रुः शत्रुं, शत्रु, शत्रून्. पशुः पशुं, पशु, पशून्. असुः असुम्, असू, असून्. वायुः वायुं, वायु, वायून्.
इदानीं समीचीनं महोदय. अस्तु श्रीप्रिया भगिनी नमस्कारः.
नमस्कारः महोदय. क्षम्यतां महोदय.
चिन्ता मास्तु भगिनि. तत्र पुटसङ्ख्या 99 मध्ये 99 तत्र स्मः. इदानीं तत्र द्वितीयविभक्तिरूपम् अकारान्तपदम्, इकारान्तपदम्, उकारान्तपदं पुल्लिङ्गे कृतम्. इदानीं ऋकारान्तपदं ज्ञाता इति ज्ञातृ. तत्र तद् पठति वा भगिनि?
पठामि. ज्ञाता, ज्ञातारं, ज्ञातारौ, ज्ञातृन्.
इदानीं
कर्तारं, कर्तारौ, कर्तृन्. स्रष्टा, स्रष्टारं, स्रष्टारौ, स्रष्टृन्. हर्ता, हर्तारं, हर्तारौ हर्तृन्
हा समीचीनं भगिनि हर्तृन् हा समीचीनं भगिनि हा अस्तु इदानीम् उषा भगिनी पुनः हा इदानीं तत्र किम् अभ्यासम् एतादृशमेव भवतु वा सर्वे बहु किमपि कृतवन्तः किन्तु इदानीम् अहं चिन्तयामि तत्र प्रायशः इकारान्त आकारान्त स्त्रीलिङ्ग इकारान्त स्त्रीलिङ्ग अपि दीर्घ ईकारान्त मतिशब्दवत् अपि नदीशब्दवत् अस्ति अतः प्रायशः किञ्चित् मिश्रणमपि कर्तुं शक्नुमः अस्तु तर्हि एतदेव कुर्मः उषा भगिनी तत्र शाटिका अपि भवती मिश्रणमेव कुर्मः शाटिका अपि नीतिं मध्ये एकं करोतु अपि ब्राह्मी तदपि करोतु भगिनि तत्र अपि एकं करोतु ईकारान्तेकं स्त्रीलिङ्गे
अस्तु महोदय शाटिका शाटिकां शाटिके शाटिकाः परिचारिका परिचारिकां परिचारिके परिचारिकाः नीतिः नीतिः नीतिं नीती नीतिः श्रुतिः श्रुतिं श्रुती श्रुतिः ब्राह्मी ब्राह्मीं ब्राह्म्यौ ब्राह्मीः नारी नारीं नारीं नार्यौ नारीः
हा समीचीनं भगिनि हा इदानीं नरेश् महोदय तत्र हा विद्या इति अस्ति आकारान्ते तदनन्तरं मुष्टिः इति अस्ति हा वाणी
विद्या विद्या विद्यां विद्ये विद्याः
मुष्टिः
मुष्टिं मुष्टी मुष्टीः शुद्धिः वाणीं वाण्यौ वाणीः
वाणीः हा समीचीनं महोदय हा अस्तु रघुपति महोदय इदानीं तत्र आकारान्तं कृतम् अतः तत्र पद्धतिः इति न सिद्धिः सिद्धिः अपि पुष्पम् इति
सिद्धिः 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 अस्ति नीतिवत् सिद्धिः सिद्धिं सिद्धी सिद्धीः इति अस्ति अनन्तरं पुष्पं 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 पुष्पे पुष्पाणि वृजिनं वृजिनं वृजिने वृजिनानि
वृजिनानि वृजिनानि हा समीचीनं महोदय हा इदानीं श्रीप्रिया भगिनि तत्र किमस्ति तत्र पद्धतिः अस्ति वा पद्धतिः गतिः अस्ति
पद्धतिः पद्धतिं पद्धति पद्धतीः गतिः गतिं गति गतीः
हा समीचीनं भगिनि हा इदानीम् अग्रिमम् अपि आरम्भं करोतु तृतीय अभ्यासः तत्र
उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत व्यासः कथां लिखति एताः गुरुं प्रणमन्ति
हा एताः गुरुं प्रणमन्ति हा अग्रिममपि करोतु भगिनि
आचार्यः शिष्यं परिष्करोति
हा आचार्यः शिष्यं परिष्करोति समीचीनं भगिनि हा अस्तु उषा भगिनी अग्रे
पिता मन्दमतिं बोधयति
हा पिता मन्दमतिं बोधयति हा समीचीनं
मित्रं मित्रं सद्गुणं सद्गुणं वदति
हा मित्रं सद्गुणं
वदति
समीचीनं भगिनि हा रघुपति महोदय अग्रे
महोदय तस्यां बालकाः
जनाः षष्ठः
जनाः ऋषयः ऋषय इति ऋषिः अस्ति किल ऋषी ऋषीन्
हा अत्र प्रायः णत्वं भवति इति मन्ये महोदय. ऋषीण् इति
ऋषीण् ऋषीण् भवति अन्ते ऋषीण् पूजयन्ति.
ओ केवलं ऋषिणे अन्ते अन्ते न भवति
अन्ते न भवति इति
सत्यं महोदय. ऋषिणेव ऋषिणेव
अन्ते न जनाः ऋषीन् पूजयन्ति. सेनापतिः व्यूहः
सप्तम बालकाः इदानीम्
अस्तु अस्तु बालकः माता मातरं पृच्छन्ति बालकः मातरं पृच्छन्ति बालकाः
बालकः मातरं पृच्छन्ति. समीचीनं महोदय. नरेश महोदय अग्रे.
सेनापतिः व्यूहान् रचयति.
हा समीचीनं. हा अग्रे.
शूराः जयं प्राप्नुवन्ति.
हा केवलम् एकमेव अस्ति तदपि करोतु महोदय.
कौरवाः लक्षागृहं निर्माणं लक्षागृहं निर्मान्ति
निर्मान्ति निर्मान्ति हा निर्मान्ति. समीचीनं. हा अस्तु तर्हि हा इदानीं तत्र अग्रे तं तत्र त्वम् अस्तु. किन्तु अत्र एव किञ्चित् पुनरभ्यासं कुर्मः. तत्र पुटसङ्ख्या 99 तत्र नवनवतिः तद् दृष्ट्वा सरलवाक्यं रचयतु. तत्र कोऽपि पदं तत्र यद् दत्तमस्ति तद् उपयुज्य द्वितीयविभक्तिरूपं कर्मपदम् इति स्वीकृत्य वाक्यं करोतु. वंशीसुधा भगिनी नमस्कारः.
नमस्ते महोदय.
तत्र नवनवति पुटसङ्ख्ये तत्र स्मः
महोदय.
तत्र द्वितीय अभ्यासे यानि पदानि दत्तानि सन्ति तानि उपयुज्य तेषाम् उपयोगं कृत्वा सरलवाक्यं रचयन्तु. कः प्रथमतया वदति का वदति? अस्तु महोदय रघुपति महोदय वदतु.
अतिथिः अतिथिमिति वयं गृहम् आगतः आगतम् अतिथिं सत्करिष्यामः.
हा समीचीनं महोदय. गृहम् आगतम् अतिथिं गृहं
सत्करिष्यामः.
समीचीनं महोदय. उषा भगिनि.
आं महोदय. अहं रामं नमामि.
हा समीचीनं भगिनि. हा अस्तु नरेश महोदय.
अहं मुनिं पृच्छामि.
हा मुनिं पृच्छामि. अस्तु श्रीप्रिया भगिनि.
श्रीकृष्णः वेणुं वादयति.
हा श्रीकृष्ण वेणुं वादयति. समीचीनं भगिनि. हा वंशीसुधा भगिनि.
आं महोदय. अत्र कोऽपि पदस्य भवतु महोदय.
किमपि किमपि उपयुज्य वदतु भगिनि.
अस्तु महोदय. विद्या अस्ति विद्यायाः बहुवचनरूपं या द्वितीयपद द्वितीय द्विवचनरूपं महोदय.
कर्मपदम् आवश्यकम्.
ओ समीचीनं क्षम्यताम्. अहं संस्कृतविद्यां पठामि.
संस्कृतविद्यां पठामि. अस्तु संस्कृतविद्याम् अस्तु समीचीनं भगिनि. अस्तु तत्र इदानीं तत्र तृतीय अभ्यासः वयं कृतवन्तः. तत्र केवलं अभ्यासार्थं तत्र किं भवति मध्यमपुरुषे तत्र उपयुज्य तत् कुर्मः तत्र द्वितीय तृतीय अभ्यासे. उदाहरणं यत् वयं कृतवन्तः तत्र व्यासः आचार्यः मित्रम् इति सर्वम् अस्ति. तत्र त्वम् अथवा युवां यूयम् इति उपयुज्य एकवचने वा द्विवचने वा बहुवचने वा एकवारं कुर्मः. अस्तु, तर्हि नरेश् महोदय अत्र किं भवति? व्यासस्थाने त्वं, व्यासस्थाने त्वम् इति अस्ति चेत् किं भवति? त्वं कथां,
त्वं कथां लिखसि,
हा इति
द्विवचने. युवां कविते लिखतः,
तत्र के अस्तु, तत्र कर्मपदस्य एकवचनं भवति चेदपि चिन्ता नास्ति. त्वं कथां लिखसि, युवां कथां,
कथां युवां कथां लिखतः, यूयं समाचारः, समाचारः लिखतः,
लिखसि द्विवचने द्वितीयपुरुषे किम् अस्ति क्रियापदस्य रूपं? लिखसि,
लिखतः, लिखतः, लिखसि, लिखतः, लिखत,
लिख,
लिखसि, लिखतः, लिखतः,
हा अस्तु, हा समीचीनं महोदय, हा लिखसि, लिखतः, लिखतः, अस्तु समीचीनं. हा तत्र अग्रे तत्र उषा भगिनी द्वितीयवाक्यम्.
एताः गुरुं प्रणमन्ति, अहं गुरुं प्रणमामि, अहम् आवां गुरुं प्रणवावः, वयं गुरुं प्रणमामः.
हा समीचीनं भगिनि, अस्तु. हा रघुपतिमहोदय,
एकनिमिषं महोदय, कुत्र महोदय?
आचार्यः इति अस्ति. हा
आचार्य, अस्तु
महोदय, एकनिमिषं. द्वितीयविभक्ति कर्मपदं मां, माम् इति वदामि किल?
हा माम् इति सत्यं,
परन्तु अहम्, अहम् आवां वयं, द्वितीयविभक्तेन वदामि न महोदय, माम् आवाम् अस्मान्.
हा तत् सत्यं, किन्तु तत्र अहम्
अस्तु अहम् अस्तु गुरुम् एव,
हा गुरुम् इति सत्यं.
एकः सन्देहः, कर्मपदं सर्वदा द्वितीयविभक्ति एव अस्ति वा प्रथमाविभक्ति अपि अस्ति वा महोदय?
कर्तृप्रयोगे तदेव
कर्मपदं महोदय,
कर्तृप्रयोगे साधारण
कर्मणि प्रयोगे एव प्रथमाविभक्ति अस्ति.
सत्यम्.
अत्र त्वं कथा लिखामि, कथां लिखामि, एतत् उदाहरणमस्ति महोदय, तत्र त्वं कथा लिखसि अस्ति,
कथां कथां कथाम् अस्ति किल,
उदाहरणे यत् क्षम्यताम्, अत्र एकः भेदः भेदः अस्ति तत्र,
एकं द्वे एकम् अस्ति भगिनि,
भगिनि तत्र कुत्र उदाहरणं दत्तं वा तत्र?
चतुर्थबिन्दु यत्र एरो अस्ति, त्वं कथा लिखसि, कथाम् इति, ओ अस्तु वा महोदय, प्रथमबिन्दु अस्ति, सम्यक् अस्ति महोदय,
समीचीनं वा इदानीं?
समीचीनं महोदय, एकः स्थाने कथा लिखति, एकः स्थाने कथां भवति महोदय, अस्ति अस्ति महोदय, यदि एरो एरो पश्यामि
कुत्र कुत्र
दत्तं न दत्तमस्ति, केवलं कथा अस्ति, तस्य द्वितीयविभक्ति
वाक्यं,
तत्र चतुर्थ अभ्यासः एतावत् वयं न कृतं, तत् आगच्छति तस्मिन् समये सम्यक्तया कुर्मः. इदानीं केवलं तत्र तृतीय अभ्यासः, चतुर्थ अभ्यासे यदस्ति तदेव किञ्चित् अत्रापि कुर्मः इति
परन्तु महोदय कोष्टकं दृष्ट्वा वाक्यानि लिखते इति पठितवान् समाचारः.
अस्तु चिन्ता मास्तु भगिनि, हा चिन्ता मास्तु, त्वम् इति अभ्यासः भवति तावदेव. नो चेत् सर्वदा पठति लिखति इति भवति, तत्र लिखसि लिखामि तदपि भवतु इति, तावदेव, चिन्ता मास्तु. अस्तु, रघुपतिमहोदय अग्रे.
तृतीयबिन्दुः अस्ति, तृतीय आचार्यः शिष्यः. अस्तु, त्वं शिष्यं परिष्करोषि, त्वं शिष्यं परिष्कुरुतः इति भवति वा? कुरुतः
कुर्वन्ति, त्वम् इति अस्ति, त्वं करोषि,
यूयं, सोरि, युवां, युवां शिष्य शिष्यं परिष्कुरुतः
इति समीचीनं.
यूयं यूयं
युवां,
सोरि, युवां यूयं शिष्यं परिष्कुरुत कुरुत कुरुत करोति करोति
करोषि करोषि कुरुत
कुरुत तदेव न?
आम् आं महोदय.
अस्तु, हा, अतः पश्यतु मध्यमपुरुषे अभ्यासम् आवश्यकम् इति. अस्तु, श्रीप्रिया भगिनी अग्रे
चिन्तयामः, जानान्
वयं एतदेव
जानीमः, परन्तु यदा आवश्यकं भवति तत्र न आगच्छति.
श्रीप्रिया भगिनी अग्रे.
अहं मन्दमतिं बोधयामि, आवां मन्दमतिं बोधयावः, वयं मन्दमतिं बोधयामः.
हा, समीचीनं भगिनि. अग्रे.
आं महोदय, त्वं सद्गुणं वदसि, युवां सद्गुणं वदतः वदावः, युवां सद्गुणं वदावः. त्वं सद्गुणं वदसि, त्वं सद्गुणं वदसि, युवां सद्गुणं वदतः, यूयं सद्गुणं वदत.
इदानीं समीचीनं भगिनि,
क्षम्यता महोदय,
चिन्ता मास्तु भगिनि,
प्रभावः जातः.
भवति एव. अस्तु, अग्रे उषा भगिनी, तत्र जनाः
किं वदामि महोदय?
त्वं
त्वं त्वं ऋषीन् त्वं ऋषीन् पूजयसि पूजयसि, त्वं युवां
युवां
युवां ऋषीन् पूजयतः, यूयं ऋषीन् पूजयथ.
समीचीनं भगिनि. अस्तु, रघुपतिमहोदय अग्रे.
बालिकाः, अस्तु, त्वं त्वं मातरं पृच्छसि, युवां मातरं पृच्छतः, यूयं मातरं पृच्छथ.
हा, समीचीनम्. अस्तु, अग्रे श्रीप्रिया भगिनी.
अहमपि त्वमेव करिष्यामि.
यद् यदुच्यते करोति, करोतु भगिनि, चिन्ता मास्तु.
त्वं व्यूहान् रचयसि, व्यूहान् रचयथः, यूयं व्यूहान् रचयथ.
हा, समीचीनं भगिनि. हा, नरेश मोदी अग्रे.
महोदय, शूराः जयं प्राप्नुवन्ति, त्वं त्वं जयं प्राप्नोषि प्राप्नोषि, युवां जयं प्राप्नुतः, यूयं जयं प्राप्नुस्थ.
हा, समीचीनं महोदय. हा, समीचीनं. वंशीसर भगिनी इदानीं तत्र
दशमबिन्दु, त्वं लाक्षागृहं निर्मासि, निर्मासि सम्यक् वा महोदय? परन्तु तत्र बहुवचने अस्ति, अतः अहं
लाक्षागृहम् त्वम् इति तत्र कौरवाः अस्ति चेत् निर्मान्ति, त्वम् अस्ति चेत्
निर्मासि, युवां लाक्षागृहं निर्मातः, यूयं लाक्षागृहं निर्मातः.
तत्र प्रायशः निर्मित इति अस्ति वा रूपम्? एकवारं पश्यन्तु. निर्मासि,
निर्मसीय, निर्मा, अहं न जानामि महोदय.
मम अपि किञ्चित् शङ्का अस्ति अतः.
निर्मितः या निर्मिस्, कोऽपि जानाति चेत् वदतु.
तत्र मा इति प्रायशः अस्ति खलु, तत्र
माति अपि अस्ति, तत्र द्रष्टव्यं मा अस्ति. अस्तु, माति मातः तदेव महोदय.
निर्माति एव वा?
निर्माति एव, निर्मासि, निर्मात् मासि, माति अस्ति तत्र, माने इति तत्र धातुः अस्ति, अतः माति मातः मान्ति, मासि मातः माता, अतः निर्मासि निर्मातः निर्माता.
निर्माता, अस्तु अस्तु
अस्तु, मा माने निर्मातः. धातु महोदय, धातु मा धातु,
मा मा धातु, मा धातु.
धन्यवादः.
नी उपसर्ग अस्ति,
नी उपसर्ग अस्ति.
अष्टादय मध्ये यत्र उपसर्गयुक्त तत्र न दत्तमस्ति, अतः उपसर्गरहित एव द्रष्टव्यम् अनन्तरं.
तत्र नी त्यक्त्वा मा इति धातु यदि तत्र स्थापयामः, तत्र धातु प्रायशः मा माने इति तदेव
तदेव तदेव अहं चिन्तित्वा.
अस्तु, समीचीनं,
तदेव भवति.
अस्तु, समीचीनं. अस्तु, तर्हि अग्रे शैलजा भगिनी, नमस्कारः.
नमस्कारः महोदय. अहं कुत्र स्थानम् इति अहं न जानामि.
शतमपुटे 100 पेज् 100 तत्र चतुर्थाभ्यासः द्वितीयविभक्ति इति विषयः. अस्तु, इदानीं तत्र चतुर्थाभ्यासः कर्तुं शक्नुमः. तत्र श्रीप्रिया भगिनी आरम्भं करोति वा तत्र?
आम् महोदय. दृष्ट्वा वाक्यानि लिखत. लिखसि. युवां कविते लिखतः. यूयं समाचारान् लिखत.
अस्तु, समीचीनं भगिनि. अस्तु, तत्र मिश्रणमपि कर्तुं शक्नुमः, केवलम् एकमेव करणीयम् इति नास्ति. अस्तु, अत्र अतः तर्हि तत्र उषा भगिनी तत्र एव तत्र त्वं युवां यूयम् उपयुज्य, किन्तु तत्र किञ्चित् मिश्रणं करोतु भगिनि. तत्र त्वं कविते,
त्वं कविता, कविता,
कविते अस्ति चेत् किं भवति? कविते अस्ति चेत् किं भवति? त्वं,
त्वं कविता, कविते द्वितीय द्विवचनम् अस्ति, द्वितीय कविता अस्ति महोदय.
न न न, तत् तत्र यत् वचनं
कर्मपदस्य
तदेव वचनं कर्मपदस्य अपि भवति इति कोऽपि नियमः नास्ति खलु?
बहुवचनमपि भवितुमर्हति.
तत्र त्वं कथां लिखसि, इदानीं कविते अस्ति चेत् किं भवति? त्वं
कविते,
कविते किं भवति?
लिखसि,
लिखसि, लिखसि एव भवति,
लिखसि एव भवति. त्वम् इदानीं समाचारः अस्ति चेत् किं भवति? त्वं,
त्वं समाचारः,
न न, समाचाराः अस्ति चेत् किं भवति? समाचारः,
समाचारान्,
हा,
त्वं समाचारान् लिखसि.
समीचीनम्. अस्तु, इदानीं नरेश् महोदय, युवाम् इति उपयुज्य सर्वं तत्र कथा, कविते, समाचाराः.
आम् महोदय. युवां कथां लिखसि,
न न, युवां, युवां,
युवां, युवां, ओ, युवां कथां लिखतः. युवां कविते लिखतः युवां समाचाराः
समाचारान्
लिखतः
इदानीं मिश्रणं भवति खलु
युवां समाचाराः
समाचारान्
लिखतः
हा इति अस्तु तर्हि अग्रे रघुपतिमहोदय तत्र एतत् करोतु प्रथमतया यूयं लिखत इति तद् कृत्वा तदनन्तरं त्रयमपि करोतु तत्र
यूयं यूयं कथां लिखत यूयं कविते यूयं कविते लिखत तत्रापि यूयं समाचारान् लिखत
हा इति समीचीनम् अस्तु हा इदानीं वंशीसुता भगिनी तत्र हा तत्र लिखामि इति अस्ति तत्र यद् अस्ति अहं आवां वयं या तत्र शरम् अस्ति तद् तदेव अनुसृत्य वदतु भगिनि अहं कथाम्
अहं गीता इति वदामि महोदय
गीते गीते इति अस्ति तत्र गीते किं प्रथमविभक्तिरूपं दत्तमस्ति तत्र द्वितीयविभक्तिरूपं किं भवति गीते इति
गीता गीते गीता इति अस्ति न महोदय गीता गीते गीताः
प्रथमविभक्ति द्वितीयविभक्तौ
द्वितीयविभक्तौ गीते एव अस्ति न महोदय अहं गीतां लिखामि
गीते इति दत्तमस्ति भगिनि किमर्थं वचनस्य परिवर्तनं करोति भवती
आं महोदय अहं गीते लिखामि आवां गीते एव भवति वा
आवां पत्राणि तद् वदतु
आवां पत्राणि लिखावः वयं कादम्बरी लिखामः कादम्बरीं क्षम्यतां कादम्बरीं लिखामः
समीचीनम् अस्तु इदानीं
आवां गीते लिखावः आवां पत्राणि लिखावः आवां कादम्बरीं लिखावः
हा समीचीनं भगिनि हा समीचीनम् अस्तु हा इदानीं तत्र उषा भगिनी तत्र वयम् इति उपयुज्य सर्वं गीते पत्राणि कादम्बरीं तत्र वयं किं भवति क्रियापदं कर्मपदम् अस्तु प्रथमतया
वयं गीते लिखामः वयं पत्राणि लिखामः वयं कादम्बरीं लिखामः
हा समीचीनं भगिनि अस्तु हा तत्र मिश्रणाभ्यासः जातः अस्तु समीचीनम् अग्रे गच्छामः तर्हि तत्र शैलजा भगिनी अग्रिमम् अभ्यासम् आरम्भं करोति वा
देवः भक्तान् पालयति
तत्र रक्तवर्णे यत् वाक्यम् अस्ति तदेकवारं पठित्वा प्रथमं
कोष्ठके विद्यमानानां शब्दानां द्वितीयाविभक्तिरूपैः रिक्तस्थानानि पूरयत देवः भक्तान् पालयति सारथिः अश्वौ निबध्नाति
हा तत्र अश्वौ इति एव अस्ति तत् द्वितीयविभक्तिरूपमपि
द्वितीयाविभक्तयामपि द्विवचने अश्वौ
एव भवति समीचीनं भगिनि अस्तु समीचीनम् अस्तु अग्रे नरेश महोदय
आम् महोदय मुनयः सद्यं विन्दन्ति धृतराष्ट्रः युद्धवार्तां शृणोति
हा समीचीनं महोदय हा अस्तु रघुपतिमहोदय अग्रे
अस्तु महोदय वयं किं पठामः वयं युद्धवार्तां पठामः
धृतराष्ट्रः
धृतराष्ट्रः कुत्र अस्ति
भगवद्गीता
अस्ति
अस्तु एकनिमिषं धृतराष्ट्रः धृतराष्ट्रः शृणोति का
सः एव युद्धवार्तां शृणोति
धृतराष्ट्र
हा युद्धवार्तां शृणोति अस्तु धृतराष्ट्रः युद्धवार्तां शृणोति वयं भगवद्गीतां पठामः
तत्र यथा शैलजभगिनी उक्तवती सङ्ख्या दत्तमस्ति महोदय तत्र
सङ्ख्या दत्तमस्ति अस्तु अस्तु
तत्र कुत्र अस्ति इति अन्वेषणस्य आवश्यकता नास्ति
नास्ति
अस्तु उषा भगिनी अग्रे
वेदवादरताः पुष्पितवाणी प्रवदन्ति पुष्पितवाणीं प्रवदन्ति
पुष्पितवाणीं प्रवदन्ति
अर्जुनः प्रज्ञावादाः अर्जुनः प्रज्ञावादान् भाषते
अर्जुनः प्रज्ञावादान्
भाषते
समीचीनं
षष्टमवाक्यस्य अर्थः कः
कस्य
षष्टमवाक्यस्य अर्थः
वेदवादरताः इति वा तद् वाक्यं हा फ्लवरी स्पीच् पुष्पवाणी
वेद
बहु मधुरा
वेद पुष्पवाणी एव अस्ति वेद
अस्तु
अतः
पुनरेकवारं वदतु महोदय तत्र शैलजपगिनी
अहम् अवगतवती
कः गुरून् हन्ति आसुरजनाः प्रवृत्तिं न जानन्ति
समीचीनं भगिनि अस्तु वंशीसुत भगिनि अग्रे
आं महोदय दशमबिन्दु ज्ञानी शास्त्रविधिं शास्त्रविधिं न उत्सृजति ज्ञानी शास्त्रविधिं न उत्सृजति सर्वे विजयं काङ्क्षन्ति
समीचीनं भगिनि अस्तु शैलजा भगिनी अग्रे
हितप्रज्ञः इन्द्रियाणि संहरति
इन्द्रियाणि तत्र किमर्थं तदेव रूपं
नपुंसकलिङ्गं
नपुंसकलिङ्गम् अस्ति इति समीचीनम् अग्रे
कृष्णः अर्जुनस्य प्रज्ञां मोहयति
समीचीनं भगिनि अस्तु नरेश मोदी अग्रे
माधवः पाण्डवश्च शङ्खौ सेनापतिः सेनां दीक्षते
समीचीनं महोदय अस्तु उषा भगिनी अग्रे
सात्विकाः देवान् यजन्ते अज्ञाः विषयान् उपसेवन्ते
विषयान् समीचीनं भगिनि अस्तु रघुपति
अस्तु महोदय शङ्खकोशः पृथिवीं वेनुनादयति पृथिवीम् इति भवति त्वं कुरवः कुरून् पश्य
कुरवः कुरून् पश्य समीचीनं महोदय अस्तु श्रीप्रिया भगिनी अग्रे श्रीप्रिया भगिनी अस्तु
वा क्षम्यतां वयं हरिम् उपास्महे पितृव्रताः पितरं यान्ति
पितरं यान्ति
पितरः बहुवचनं
पितृवचनं धन्यवादः भगिनि अतः किं भवति रूपं किं भवति
पितॄन्
पितॄन् समीचीनं पितृन् वंशीसभगिनी अग्रे
दुर्योधनः चमूं दर्शयति
चमूं
दर्शयति
अस्तु इदानीं भवन्तः एव एतादृशं वाक्यं रचयन्तु पुनः एकवारं तत्र कर्मपदं भवेत् प्रथमवारं कर्मपदं एकवचने भवतु अपि वाक्यद्वयं रचयन्तु कर्मपदम् एकवचने तदनन्तरं द्वितीयवाक्ये कर्मपदं द्विवचने वा बहुवचने अस्तु शैलजा भगिनी किमपि वाक्यं वदति वा
आम् भक्ताः देवं भजन्ते
भक्ताः देवं भजन्ते समीचीनं वंशीसुधा भगिनी
आं महोदय अहं मातरं प्रणमामि अहं मातॄन् प्रणमामि
अस्तु श्रीप्रिया भगिनी
क्षम्यतां महोदय किं करणीयं
वाक्यं कर्मपदं एकं वाक्यं मध्ये कर्मपदम् एकवचने अन्यत् वाक्यमध्ये द्विवचने वा बहुवचने किमपि वाक्यम् अभ्यासार्थं तावदेव
अहं हरिं नमामि अहं हरीन् नमामि
अस्तु भगिनि अस्तु समीचीनम् अस्तु नरेश महोदय
सः कथां पठति सः
अस्तु 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 पुनः किञ्चित् समयानन्तरं वदतु महोदय चिन्ता मास्तु अस्तु उषा भगिनि
बालकः मातरं पृच्छति वयं खेलितुं क्रीडाङ्गणं गच्छामः
क्रीडाङ्गणं गच्छामः समीचीनम् अस्तु रघुपति महोदय
अहं भगवद्गीतां पठामि बालकाः गुरून् नमन्ति
अस्तु शैलजपनी पुनरेकवारम्
अहं सिम्बलैस् इति आङ्ग्लपदस्य संस्कृत अनुवादं न जानामि भवान् जानाति इति मन्ये
सिम्बलैस् अस्तु चिन्तयित्वा वदामि भगिनि धन्यवादः अस्तु वंशीसुधा भगिनि
त्वं कक्षां चालयति वयं कक्षान् तिष्ठामि
पुनरेकवारं भगिनि
त्वं कक्षां चालयसि क्षम्यतां यूयं कक्षां चालयथ
अस्तु कर्मपदं द्विवचने भवति वा तत्र तादृशवाक्यं वदतु एतत् समीचीनमेव किन्तु कर्मपदं द्विवचने बहुवचने वा तदपि अस्तु अन्य कोऽपि नरेश महोदय पुनरेकवारं
परिवर्तनं करोमि वा महोदय
करोतु भगिनि
त्वं कक्षां चालयसि यूयं कक्षाः चालयथ
कक्ष्याः
चालयथ
अस्तु अस्तु समीचीनम् अस्तु इदानीं तत्र एतत् कुर्मः तत्र इदानीम् अहं चिन्तयामि तत्र यद् पूर्वं वयं कृतवन्तः तस्य प्रायशः इदानीं स्मरणं नास्ति इति एतत् समीचीनं पुनः क्रियापदस्य द्वितीयविभक्तिक्रियापदस्य न क्रिया द्वितीयविभक्तिरूपं पुनरेकवारं तत्र पश्यामः. भक्तः इति तत्र द्विवचने द्वितीयविभक्तिरूपं किं भवति इति पश्यामः. अस्तु, तर्हि तत्र उषा भगिनी, भक्तः द्वितीयविभक्तिरूपं किं?
भक्तः भक्तौ भक्ता
न द्वितीयविभक्तिरूपं भक्तः
भक्तं
भक्तं हा समीचीनम्. अस्तु, इदानीं भक्ताः इति पदस्य द्विवचन द्वितीयविभक्तिरूपं रघुपतिमहोदय?
भक्तान् अकारान्त अस्ति, भक्तान्.
अस्तु, हा नरेश महोदय, अश्वः
अश्वः अश्वम्
अश्वम् न न एकमेव अश्वः इति किमस्ति? अश्व अश्वः इति पदस्य द्वितीयविभक्तिरूपम्
अश्वम्
अश्वम् इति तावदेव. अस्तु, श्रीप्रिया भगिनी, इदानीं सिद्धिः इति
सिद्धिं
सिद्धिम् अस्तु, तर्हि तदनन्तरं तत्र वंशीश्रुता भगिनी, पशुः इति
किं महोदय?
पशुः द्वितीयविभक्तिरूपं
पशुः पशुं
पशुम् अस्तु. शैलजा भगिनी, नारी इति
नारीं
नारीम् इति समीचीनं. हा इदानीं रघुपतिमहोदय, तत्र सिद्धिः इति किन्तु बहुवचने किम् अस्ति?
सिद्धिः इति स्त्रीलिङ्ग अस्ति वा महोदय? सिद्धिः इति सिद्धीः इति भवति.
हा सिद्धिः द्वितीयविभक्तिरूपं बहुवचने, समीचीनम्. अस्तु, तत्र उषा भगिनी, श्रुतिः इति बहुवचने किं भवति?
श्रुतिः
श्रुतिः श्रुतिः द्वितीयविभक्तिरूपं बहुवचने
श्रुतिः
श्रुतिः. हा समीचीनम्. अस्तु, हा श्रीप्रिया भगिनी, तत्र मुष्टिः इति बहुवचने किं भवति?
मुष्टिः
मुष्टिः. हा वंशीसुधा भगिनी, इदानीं गतिः बहुवचने द्वितीयविभक्तिरूपं
गतिः
गतिः. हा समीचीनम्. अस्तु, शैलजा भगिनी, प्रज्ञावादाः द्वितीयविभक्तिरूपं
प्रज्ञावादान्
समीचीनम्. अस्तु, हा वंशीसुधा भगिनी, इदानीं गुरु इति द्वितीयविभक्तिरूपं
गुरून् महोदय?
हा गुरु
बहुवचने एकवचनरूपमस्ति?
न गुरुः गुरु गुरवः
गुरु गुरुं महोदय
गुरुः न गुरु
ओ गुरु गुरु एव अस्ति
गुरु एव अस्ति द्विवचने. अस्तु, हा अस्तु, हा श्रीप्रिया भगिनी, तत्र विजयौ
विजयौ
विजयौ समानमेव. अस्तु, समीचीनम्. अस्तु, इदानीं उषा भगिनी, तत्र सेनाः
सेनाः एव
सेनाः एव. अस्तु, समीचीनं. हा अस्तु, नरेश महोदय, तत्र विद्या इति द्वितीयविभक्तिरूपं द्विवचने
विद्या विद्ये
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 विद्ये इति समीचीनम्. अस्तु, रघुपतिमहोदय, तत्र मातरः द्वितीयविभक्तिरूपं
मातरः मातरं मातरौ मातरौ मातरं मातरौ
तत्र किं भवति? मातरं मातरौ मातृन्
मातर मातृन् बहुवचनमस्ति मातृन्
मातृन्. अस्तु, समीचीनं.
मातृन् अस्ति मातृः
मातृः
दीर्घं
पितॄन् अस्ति
मातृः अस्ति महोदय
मातृः
वेदः अस्ति वेद अस्ति वा ऋकारन्त स्त्रीलिङ्गपदम् अस्ति खलु कर्ता इति मम दोषः मम दोषः. हा अस्तु, हा 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 एतदेव पश्यतु अभ्यासः आवश्यकम् इति. मातरं मातरौ मातृः तत्र मातृः नकारः नास्ति. समीचीनं. हा समीचीनम् अस्तु. पितरः पितॄन् भवति, मातरः किं भवति? मातृः इति भवति. समीचीनं. हा अस्तु, तर्हि तत्र अभ्यासः जातः. तत्र इदानीं किं कुर्मः? तत्र सर्वनामपदानां द्वितीयविभक्तिरूपं तदपि द्रष्टुं शक्नुमः इति मन्ये. अस्तु, तर्हि अग्रिमपुटे पुटं गच्छामः. तत्र प्रश्नः अस्ति वा एतावत् द्वितीयविभक्तिरूपस्य विषये? कोऽपि प्रश्नः अस्ति वा?
चमूः इत्युक्ते तस्य रूपाणि कथं भवन्ति?
चमूः, हा, उकारान्तपदम् अस्ति प्रायशः. तत्
तत्र स्त्रीलिङ्ग अस्ति न? स्त्रीलिङ्ग अस्ति वा पुल्लिङ्ग? एकनिमिष,
किं चिन्तनम्? तत्र लिङ्गस्य एतद् तत्र चमु इति कुत्र आगतं?
तत्र
वधू शब्दवत् इति मन्ये भगिनि. हा, तत्र उकारान्तस्त्रीलिङ्गपदं वधू, वध्वौ, वध्वः, चमु, चम्बौ, चम्बवः. तत्र गीतासोपाने पुटसङ्ख्या 198 मध्ये दत्तमस्ति. अस्ति, हा. एकवारं वदतु तत्र किम् अस्ति?
चमूः, चम्बौ, चम्बः, चमूः, चम्बौ, चमूः, चम्बा,
चमूः. वदतु, वदतु भगिनि, पूर्वं वदतु.
चम्बा चमूभ्यां चमूभिः, चम्बै चमूभ्यां चमूभ्यः, चम्बोः चमूभ्यां चमूभ्यः, चम्बाः चम्बोः चमूनां, चम्बां चम्बोः चमूषु.
प्रायशः चमूषु इति अस्ति वा अथवा चमूषु इति? हा, चमूषु, चमूषु. समीचीनं भगिनि, धन्यवादः. हा अस्तु, अस्तु, तर्हि इदानीं तत्र अग्रे गच्छामः. तत्र सर्वनामशब्दानां द्वितीयाविभक्तिप्रयोगः. हा अस्तु, तर्हि तत्र वंशीसुधा भगिनी आरम्भं करोति वा?
आं महोदय. उच्चैः पठत जानीत च सर्वनामशब्दानां द्वितीयविभक्तिप्रयोगः.
सः वदतु भगिनि, सः किं कुर्मः अत्र? केवलं प्रथमस्तम्भः पुल्लिङ्गे सः तौ ते, तस्य रूपम् एकवारं वदतु भगिनि.
सः तौ ते, तं तौ तान्
इति भवति. तदनन्तरम् एषः इति.
एषः, एतौ, एते, एतम्, एतौ, एतान्
इति भवति. समीचीनं. हा अस्तु, तत्र श्रीप्रिया भगिनी, सा अपि एषा किं भवति इति पठतु भगिनि.
सा ते, ताः, तां, ते, ताः, एषा, एते, एताः, एताम्, एते, एताः.
हा इति समीचीनम्. अस्तु, तदनन्तरम् इदानीं नरेश् महोदय, तत्र कः, कौ, के, अपि का, के, काः, हा, अधोभागे अस्ति.
कः, कौ, के, कं, कौ, कान्, का, के, काः, कां, के, काः.
हा इति भवति. अस्तु, इदानीं तत्र एतद् उपयुज्य किमपि वाक्यं कुर्मः. तत्र एतादृशवाक्यद्वयं कुर्मः. रामः अस्ति अथवा सः अस्ति, तं पश्यामि, तादृशरूपं. तत्र सः, तौ, ते, अथवा एषः, एतौ, एते, अथवा सा, ते, ताः, एषा, एते, एताः, तदुपयोज्य कुर्मः. तत्र कः प्रथमतया वदति? रघुपति महोदय, सरलवाक्यं.
रामः तम् आह्वयति.
रामः त्वम् आह्वयति. अस्तु, तम् आह्वयति. समीचीनम् अस्तु. उषा भगिनि.
आं महोदय, किं वदामि महोदय?
तादृशवाक्यम् अथवा सा सीता अस्ति, तां पश्यामि अथवा हा तादृशं उत्पीठिका अस्ति तां पश्यामि अथवा किमपि तादृशं हा तां प्रक्षालयामि हा तादृशवाक्यं
सा लेखनी अस्ति
तदनन्तरम् इदानीं द्वितीयरूपं तां
सा ते ताः तां
सा लेखनी अस्ति तां लेखनीं
तां लेखनीम् आनयतु
हा तां लेखनीम् आनयतु समीचीनं भगिनि तादृशवाक्यं सरलमस्ति चेदपि चिन्ता मास्तु अस्तु तर्हि शैलजा भगिनि
मम पार्श्वे लेखन्यौ स्तः भवान् भवान् ते स्वीकरोतु
हा समीचीनं भगिनि हा अग्रे वंशीसुत भगिनि
आं महोदय एकनिमिषं महोदय कोऽपि अहम् अन्य अनन्तरं वदामि महोदय
अस्तु भगिनि अस्तु चिन्ता मास्तु हा अस्तु श्रीप्रिया भगिनि
शिष्यः अस्ति पृच्छति
हा मुनिः तं पृच्छति समीचीनं
हा
मुनिः तं पृच्छति हा समीचीनं भगिनि हा नरेश महोदय
अहं तं पश्यामि
तावदेव वदतु महोदय अन्यत् वाक्यम् अस्ति चेत् वदतु महोदय
अहं तां रक्षामि
रक्षणं करोमि हा अस्तु किन्तु तत्र के रूपं भिन्नं भवति अस्तु हा रघुपति महोदय
वयं भवन्तं शृणुमः
हा किन्तु अत्र केवलं सर्वनामपदम् एतद् भवन्तम् इति एतावत् न कृतं केवलं सः तम् इति हा किन्तु समीचीनमेव अस्ति महोदय हा अस्तु अग्रे समीचीनमेव हा किन्तु अग्रिम वरं केवलं हा चिन्ता मास्तु अस्तु शैलजा भगिनि पुनः
मम द्वारम् उद्घाटनं भवति भवान् अतः आगच्छतु
न सम्यक्तया न श्रूयते भगिनि
मम द्वारम् उद्घाटयति
मम द्वारम्
उद्घाटयति
तत्र कर्तृपदं किम्
कर्तृपदं नास्ति स्वयमेव उद्घाटयति
द्वारम् उद्घाटयति अस्तु हा
कर्मपदं द्वारम्
कुत्र वाक्ये वा
आम् आम्
कर्तृपदं किं
कर्तृपदं
अस्तु उद्घाटयति इति क्रियापदम् अस्ति समीचीनं भगिनि हा द्वारम् उद्घाटयति इति अस्ति तत्र द्वारं कर्तृपदं वा कर्मपदं वा
अतः एव अहं
हा यदि भवती वक्तुमिच्छति अह सः द्वारम् उद्घाटयति तत्र सः कर्तृपदं भवति केवलं द्वारम् एव उद्घाटयति इति अस्ति चेत् तत्र
द्वारम् उद्घाटयसि
न न न तत्र
स्वयमेव द्वारम् उद्घाटयति इति वक्तुम् इच्छामि
हा द्वारं स्वयमेव उद्घाटयति अस्तु हा तत्र प्रायशः तत्र कर्मपदं किमपि नास्ति इति मन्ये द्वारम् उद्घाटयति इति हा अस्तु तत्र अन्यत् वाक्यं वदतु कर्मपदं यत् यत्र अस्ति तादृशवाक्यं
भवान् द्वारं प्रति गच्छतु
भवान्
द्वारं प्रति गच्छतु.
द्वारं प्रति गच्छतु. अस्तु, समीचीनं भगिनि. द्वारं प्रति गच्छतु. अस्तु, समीचीनं भगिनि. अस्तु, रघुपतिमोदि, अन्यत् वाक्यम्?
अन्यत् वाक्यं
किमपि अस्य अभ्यासः अहं ददामि, क्षम्यताम्.
अहम् एतं न जानामि.
अस्तु,
भवान्
अहं चिन्तितवान् अस्तु, नो चेत् केवलं पुस्तकं पठामः, किञ्चित् अभ्यासः भवतु, स्वय अभ्यासः इति, तादृशम् एतादृशम् अभ्यासं कुर्मः इति. अस्तु अस्तु, तर्हि तत्र सहतौ ते, इदानीं तत्र सहतौ ते इति तदेव रूपस्य किञ्चित् पुनः मिश्रणं कृत्वा अभ्यासं कुर्मः. सः रामः, इदानीं विभक्तिरूपं, द्वितीयविभक्तिरूपं किम् अस्ति नरेश् महोदय? सः रामः, सः रामः तं रामम्. अस्तु, श्रीप्रिया भगिनि, तौ देवौ,
तौ देव
द्वितीयविभक्तिरूपं
समानमेव.
अस्तु, समीचीनम्. अस्तु, समीचीनम्. अस्तु, उषा भगिनि, ते देवाः,
ते देवाः, तान् देवाः,
तान्
देवान्,
तान् देवान्. अस्तु, समीचीनम्. इदानीं वंशीसुधा भगिनि, एषः केशवः,
एषः केशवः, एतं केशवः,
एतं
केशवं,
एषः केशवः, एतं केशवं पश्यतु इति रूपं भवति खलु, एतं केशवं. अस्तु, रघुपतिमहोदय, एते देवाः,
एते देवाः. अस्तु, एते इति एतान्, एतान् देवः, एतान् देवान्,
एतान् देवान्. अस्तु, समीचीनम्. अस्तु, शैलजा भगिनि, सा सीता,
सा सीता, तां सीतां सन्तोषं तां सीतां न तां सीतां
नमस्करोतु,
आनयतु,
अथवा नमस्करोतु. अस्तु, समीचीनं भगिनि.
समीचीनं, नमस्करोतु इति सम्यक् वा, चतुर्थी विभक्ति नास्ति वा?
नमः सीताय, सीतायै नमः, किन्तु देवं नमस्करोमि, प्रणमामि, तादृशरूपं भवति.
तां सीतां नमस्करोमि,
नमस्कर, किन्तु तत्र कर्मपदं भवति, तत् नमस्करोमि इति अस्ति चेत् भवति, नमः इति अस्ति चेत् तत्र चतुर्थी. अस्तु, वंशीसुधा भगिनि, इदानीं ताः लताः,
ताः लताः, एताः लताः, ताः लताः, ताः लताः एव महोदय,
ताः लताः एव. अस्तु अस्तु, समीचीनं. तत्र स्त्रीलिङ्गे तत्र परिवर्तनं न भवति इति कृत्वा, अस्तु, तत्र अभ्यासः अपेक्षितं नास्ति, किन्तु मनसि स्थापयतु, तत्र सातेताः प्रथमविभक्तिरूपं, द्वितीयविभक्तिरूपं किमस्ति? तां तेताः इति. अस्तु, समीचीनम्. अस्तु, इदानीं तत्र अग्रे गच्छामः. तत्र
महोदय एकः प्रश्नः, महोदय, अपि अहं सम्यक् पाकं करोमि इति अहम् उपयुज्य कर्मपदं पाकम् अस्ति, करोमि क्रियापदं, यदि माम् उपयुज्य कथं
वाक्यं, कीदृशवाक्यं भवति?
कीदृश, आं महोदय,
कोऽपि वदतु, कोऽपि वदति वा, माम् उपयुज्य,
मां सम्यक् पाकं करोतु,
कारयति, अम्बा मां
पालयति,
पालयति,
अम्बा मां पालयति,
किन्तु तावत् तद्वाक्यमेव
केवलं सरलवाक्यमस्ति, सरलवाक्यमस्ति व्याकरणरीत्या दृष्ट्या, व्याकरणदृष्ट्या अम्बा मां पालयति, हा समीचीनमेव अस्ति. किन्तु तत्र बहु किमपि वक्तुं शक्नुमः सत्यं, किन्तु माम् इति भवति. हा उषा भगिनी समीचीनं वा?
अस्तु महोदय, मम प्रश्नः अस्ति, अहं सम्यक् पाकं करोमि, यदि माम् उपयुज्य लिखामि चेत् कथं?
तदेव वाक्यं वा? तदेव वाक्यं वा? तदेव वाक्यं कथं कथं कर्तुं शक्नुमः?
न, तदेव वाक्यं न महोदय, पाकम् इति उपयुज्य, लैक्
समीचीनं भगिनि, पाकं मां, पाकं मां पुनः
सन्तोषयति
पाकं मां, सन्तोषयति आस्वादयति पाकं माम् आस्वादयति.
समीचीनं वा भगिनि इदानीं? अस्तु समीचीनमस्ति. हा एतादृशं प्रयोगः भवति चेत् तत्र विषयस्य अवगमनं भवति. हा समीचीनं.
वाक्यं द्वितीयाविभक्तिं न कर्तुं शक्यते महोदय,
तदेव वाक्यं प्रायशः
न, तदेव वाक्यं न महोदय.
किन्तु किन्तु यत् शैलजा भगिनी कृतवती तत् समीचीनमेव अस्ति. समीचीनमेव अस्ति. अस्तु इदानीं तत्र तत्र किम् अहम् अपि यत् तत्र अहं भवान् भवति त्वम् इति अस्ति, तत्र अहम् इति पदस्य रूपं किम् इति रघुपतिमहोदय पठति वा तत्र?
अस्तु महोदय, अहम् आवां वयं मां माम् आवाम् अस्मान्,
माम् आवाम् अस्मान्. हा इदानीं तत्र नरेश् महोदय त्वम् इति रूपं?
त्वं युवा, त्वं युवां यूयं, त्वां युवां युष्मान्.
हा त्वां युवां युष्मान्, हा समीचीनम्. अस्तु इदानीं तत्र
नमस्ते महोदय, गीताञ्जलि अस्मि.
हा गीताञ्जलि भगिनी, नमस्कारः भगिनी. हा
नमस्ते.
नूतन नाम अस्ति तत्र?
न महोदय, अहं किञ्चित् टेक्नालजि क्लेशः अस्ति महोदय.
अस्तु अस्तु भगिनि, अस्तु, हा
क्षम्यतां महोदय.
हा हा चिन्ता मास्तु भगिनि. हा तत्र पुटसङ्ख्या 102 मध्ये स्मः.
आम् आम् महोदय.
अस्तु तत्र माम् आवाम् अस्मान् इति उपयुज्य वाक्यं कोऽपि हा वद वक्तुम् इच्छति वा?
हा भवान् मां पाठयति.
अस्तु अस्तु, हा झटिति उक्तवान् महोदय भवान्.
अस्मान् पाठयति.
हा अस्तु, हा अस्तु तर्हि इदानीं त्वं युवां यूयं.
मम पिता माम वदति.
मम पिता माम
वदति.
वदति, हा मम पिता माम वदति, समीचीनं. हा
भवती माम क्षम्यतु.
युवां यू इदानीं युष्मान्
क्षम्यतु इति सम्यक् क्षम्यताम् इति सम्यक्
क्षम्यतां क्षम्यतां क्षम्यताम्
अहं क्षम्यै
मां
क्षम्यताम्.
समीचीनं. हा युष्मान् इति उपयुज्य कोऽपि वाक्यं वक्तुम् इच्छति वा?
आचार्यः युष्मान् पाठयति.
समीचीनं भगिनि, हा समीचीनम्. अस्तु, तत्र कर्मपदम् अस्ति चेत् द्वितीयाभक्तिरूपम् इति इदानीं जानीमः. अस्तु, प्रायशः तत्र तत्र किम् अस्ति अधोभागे, तत्र कीदृशरूपम् इति अस्ति? हा, प्रायशः तद् एकवारं दृष्ट्वा पुनः वाकं कर्तुं शक्नुमः इति मन्ये. तत्र हा वंशीसुता भगिनी, अग्रे अधोभागे तत्र अस्ति खलु एतानि वाक्यानि इति, तत् पठति वा?
आं महोदय, एतानि वाक्यानि उच्चैः पठत. पितामहः तम् आह्वयति.
तदेव इदानीं तत्र तम् इति स्थाने द्विवचने वा बहुवचने किं भवति?
आं महोदय, पितामहः तौ आह्वयति, पितामहः ते आह्वयन्ति, क्षम्यतां, पितामहः तौ आह्वयतः आह्वयतः आह्वते पितामहः एव, पितामहः तौ आह्वयति, पितामहः तान् आह्वयति.
इदानीं समीचीनम्. अस्तु, तत्र सर्वदा एषः एतादृशक्लेशः भवति. तत्र वयं चिन्तयामः, अस्तु, कर्तृपदस्य वचनं परिवर्तनं कृतवन्तः, अतः कर्मपदस्य अपि करणीयम् इति चिन्तयामः, तादृशं नास्ति. हा अस्तु, हा श्रीप्रिया भगिनी, अग्रिमवाक्यं तत्र धर्मराजः.
धर्मराजः तं वदति.
द्विवचने.
धर्मराजः तौ वदति. धर्मराजः तान् वदति.
हा, धर्मराजः तान् वदति, समीचीनम्. हा उषा भगिनि, अग्रे तृतीयवाक्यं.
हिडिम्बा कं मारयति.
द्विवचने.
हिडिम्बा कौ मारयति. कं कौ कान्. हिडिम्बा कान् मारयति.
हा समीचीनम्. अस्तु, नरेश् महोदय, चतुर्थभाग्यम् अग्रिमपुटे अस्ति.
सः मां वदति. सः आवां वदति. सः अस्मान् वदति.
हा समीचीनं महोदय. अस्तु, हा रघुपति महोदय, अग्रे.
एष एतौ जानाति. एषा एतान् जानाति. एतम् अपि एकवचने अस्ति. सारि, द्वितीयविभक्ति एकवचनम्. एषा एतं जानाति. एषा एतं जानाति. एषा एषा एतान् जानाति.
एतान्. अस्तु समीचीनं. हा शैलजा भगिनी, अग्रे.
भवान् वाक्यं वदति वा? अहं परिवर्तनं करोमि.
तत्र दत्तमस्ति खलु,
अहम् इदानीं पठितुं न शक्नोमि.
अस्तु 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 भगिनि, तत्र कृपया आवां कथयतु.
कृपया आवां कथयतु. कृपया मां कथयतु. कृपया अस्मान् कथयतु.
हा समीचीनं भगिनि, हा समीचीनम्. अस्तु वंशीसुधा भगिनि, अग्रे.
कृष्णः युष्मान् रक्षतु. कृष्णः त्वां रक्षतु. कृष्णः युवां रक्षतु.
हा समीचीनम्.
अथवा कृष्णः वां रक्षतु. कृष्णः वः रक्षतु.
अस्तु, रूपद्वयम् अस्ति इति वा? अस्तु, अस्तु. गीतञ्जलि भगिनी, अग्रे.
गृध्रः तान् शवान् खादति. गृध्रः तान् गृध्रः तौ श्वनौ
न न शव शवान् इति अस्ति चेत्
तौ शवौ खादति. धन्यवादः महोदय. तौ शवौ खादयति.
खादति
खादति एव. गृध्रः ते शवे शवं खादयति.
खादति समीचीनं.
इत्युक्ते वैनतेयः
वा?
गृद्धः शवं न खादति.
ओ
ग्रन्थः एव रूपं समानमिति मन्ये अहं.
किं किं
वैनतेय अथवा वल्चर्?
समानं नास्ति, भेदः अस्ति इति मन्ये खलु.
गरुडः वल्चर् न
खादति.
ईगल्, गरुडः इत्युक्ते ईगल्. किन्तु गरुड वल्चर् अपि गरुडक वल्चर् अपि अस्ति वा भगिनि?
प्रायशः तत्र भवति इति मन्ये.
मम मातृभाषे ग्रद्धः इत्युक्ते ईगल् अस्ति महोदय. तदेव अहं
अस्तु अस्तु द्रष्टव्यमस्ति. किन्तु अत्र प्रायः अस्तु. अग्रे तत्र कुत्र स्मः? अष्टम. अस्तु, इदानीं नवमः. अस्तु, श्रीप्रिया भगिनि. धर्मः.
धर्मः अस्मान् रक्षति. धर्मः मां रक्षति. मां मा रक्षति. धर्मः आवां नौ रक्षति. धर्मः अस्मान् रक्षति.
समीचीनं भगिनि. समीचीनं. अस्तु, नरेश महोदय.
अहं तानानि तानि जन्मानि जानामि. अहं
इदानीं तत्र तानि इति नपुंसकलिङ्गे अस्ति. तत्ते तानि, तत्ते तानि.
अहं तत् जन्मं जानामि. अहं ते जन्मे जानामि. अहं तानि जन्मात् जानामि.
समीचीनं महोदय. इदानीं तत्र प्रायशः तत्र अग्रिम जानीवः तद् त्यजामः. अग्रे कुत्र सम्यक्तया कर्तुं शक्नुमः तत्र? प्रायशः अस्तु अस्तु, तदपि कर्तुं शक्नुमः. अस्तु, एकादशवाक्यं तत्र. उषा भगिनी तत्र
आवां युवां सम्यक् जानीवः. आवां वयं
न आवामेव आवामेव, केवलं कर्मपदस्य परिवर्तनम्.
आवां युवां परिवर्तनं न
महोदय.
आवां त्वां सम्यक् जानीवः. आवां युवां यूयं
सम्यक् जानीवः. इदानीम्
आवां युष्मान् सम्यक् जानीवः.
समीचीनं भगिनि. तावदेव. अस्तु, इदानीं रघुपतिमहोदय.
अस्तु महोदय. मानवः तां सिद्धिं विन्दति. मानवः ते सिद्धिः अस्ति अथवा सिद्धिः ते सिद्धिः
तत्र 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 सिद्धिः रूपं किम् अस्ति?
सिद्धिः सिद्धिः
नीतिः किं भवति? नीतिं नीति नीतिः
नीतिः सिद्धिः. ते इति द्वितीय विभक्तिं महोदय.
द्विवचने अतः
ते सिद्धिः भवति वा?
सिद्धि दीर्घ ईकारः.
मानवः ते स्त्रीलिङ्ग वा अतः सिद्धि भवति सिद्धिं सिद्धि सिद्धिः इति
शैलशब्दवत् शब्दवत् अस्ति नदी शब्दवत् नास्ति ह्रस्व इकारः हा अपि द्वितीयविभक्तिरूपम् अपेक्षितम् इदानीम् अत्र पुटसङ्ख्या 99 पश्यतु अधोभागे किम् अस्ति नीतिः
नीतिः इति अतः अस्तु मानवः इदानीं द्वितीय द्विवचने वदामि मानवः ते सिद्धी विन्दति मानवः ताः सिद्धीः विन्दति
हा इति रूपं समीचीनं महोदय हा किञ्चित् क्लिष्टकरम् आसीत् हा किन्तु हा शैलजभगिनी अग्रे वदामि अहं वाक्यं वदामि सेना एतान् अनुसरति समीचीनं भगिनि हा अस्तु गीताञ्जलि भगिनी अग्रे
सर्वे एतां पश्यन्तु सर्वे एतम्
एताम् इति अस्ति अतः लिङ्गं किम्
एताम् इत्युक्ते लिङ्गं
एताम् एताम् स्त्रीलिङ्गं
सीताम् एताम् सर्वे एते पश्यन्तु सर्वे एताः पश्यन्तु
हा अस्तु समीचीनं भगिनि हा इदानीं तदेव वाक्यं वंशीसुत भगिनि तत्र सर्वे एताम् उत्पीठिकां पश्यन्तु इदानीं तत्र द्विवचने किं भवति
सर्वे एताम् उत्पीठिकां पश्यन्तु इति न वा इति मम
इति वाक्यं द्विवचने
आं महोदय सर्वे ओ सर्वे एताम् एते सर्वे एते उत्पीठिकौ पश्यन्तु सर्वे
उत्पीठिका लता लते
सर्वे सर्वे एते उत्पीठिके पश्यन्तु सर्वे एताः उत्पीठिकाः पश्यन्तु
हा इति भवति समीचीनं भगिनि अस्तु श्रीप्रिया भगिनी अग्रिमम्
अयतिः कां गतिं गच्छति अयतिः के गति गच्छति अयतिः काः गतिः गच्छति
हा समीचीनं भगिनि समीचीनं हा अस्तु अन्तिमं नरेश् महोदय करोति वा अन्तिमं तत्र
कः मम विभूतिं जानाति कः आवां विभूतिः जानाति कः अस्मान् विभूतिः जानाति
मम महोदय तत्र मम इति तत् कर्मपदं नास्ति तत्र मम इति षष्टिविभक्तिरूपम् अस्ति खलु
कः कौके
हा तत्र मम इति विभूतिम् एव कर्मपदम् अस्ति तत्र
कः मम विभूतिं जानाति कः मम विभूति जानाति कः
अन्तिमं कः मम
विभूतिः
विभूतिः
भग्नः अभवत् इति मन्ये अस्तु
मम विभूतिः जानाति
हा इति भवति अस्तु अस्तु तर्हि
सूर्योदय महोदय अयति
अयति कां गति
सूर्योदयः इति
कोऽपि जानाति वा इदानीं न स्मरामि
न जानामि यः यति नास्ति सा अयति एव
किमस्ति कोऽपि जानाति वा तत्र
अहं पश्यामि
अस्तु कोऽपि
अयति इत्युक्ते नो असेटिक्
अस्तु
अस्तु अस्तु
अस्तु
तत्तु नै तत्तु समासः भवति न जानाति परन्तु अत्र फ्यूचर् न फिमेल् अस्ति अयति इति फ्यूचर् बि अस्ति महोदय पोस्चर् इति अतः तदेव अस्ति कां गतिं गच्छति इति
किन्तु काम् इति तत्र गति
आयति न न तत् नास्ति
किन्तु
नाट् अटेम्प्टिङ्ग् इति
किन्तु काम् इति तु गतिम् इति कारणतः अस्ति तत्र काम् इति
शैलजा भगिनि कुत्र पश्यति
डिक्षनरि मध्ये
ओ
शब्दकोशे
विशेषण नाट् अटेम्प्टिङ्ग् इति दत्तम्
आम् आम्
किन्तु तत् विशेषणम् अस्ति महोदय अयति नाट् अटेम्प्टिङ्ग् विशेषणम् अस्ति
अर्हति इति मन्ये तत्र अब्जेक्टिव् इति दत्तमस्ति चेत् तत्र सर्वेषु वाक्येषु भवति इति न किन्तु भवितुम् अर्हति इति
किन्तु अर्थभेदः अस्ति किल महोदय अयतिः
अयतिः इति किमपि यत् अर्थः वयं श्रुतवन्तः खलु नाट् असेटिक्
खलु
किन्तु तद् तत्र तदेव कर्तृपदम् अस्ति तत्र तत्र कोऽपि विशेषणं नास्ति अत्र खलु केवलम् अयतिः एव अस्ति कां गतिं गच्छति
अस्तु तर्हि अवगतं सम्यक्
तत्र
सः सद्गतिं गच्छति
कां गतिं गच्छति अयतिः कां गतिं गच्छति कीदृशगतिं सः प्राप्नोति इति तादृश अर्थे अस्ति इति मन्ये महोदय द्रष्टव्यं अस्तु तर्हि अन्यकोऽपि प्रश्नः अस्ति वा नो चेत् विरमाम अग्रिमवर्गे मिलामः
धन्यवादः
धन्यवादः सर्वेभ्यो नमः अग्रिमवर्गे मिलामः नमस्कारः
धन्यवादः
नमस्कारः
धन्यवादः
नमस्कारः